सर्वेभ्यो नमस्कारः। अद्य पीठिकाभागः अर्थात् कम्याप्रकरणं समापयामः। ततः कारकप्रकरणस्य किञ्चिदेव पीठिका भविष्यति। येनाक्षरसमां नायम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तेः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीहं विरच्यते। Excuse me for a moment, please. काश्चन सम्याः अधीताः वृद्धिसंज्ञायाः आरभ्य वृद्धिः नाम वृद्धिरादैच् इति सूत्रेण वृद्धिपदेन व्याकरणशास्त्रे आकार ऐकार औकाराः गृह्यन्ते। एवं गुणसंज्ञा अदेन् गुणः इति संज्ञासूत्रम्। गुणशब्देन व्याकरणे अकार एकार औकाराः गृह्यन्ते इत्यपि ज्ञातम्। ततः धातुः नाम कः इति विचारे भूवादयो धातवः इति सूत्रम्। भादिगणे पठिताः अर्थात् भू इत्यारभ्य पठिताः शब्दस्वरूपाः क्रियावासिनः भवन्ति चेत् धातुसंज्ञाः भवन्ति। तर्हि किन्नाम प्रातिपदिकम्? प्रातिपदिकसंज्ञाविधायकं सूत्रद्वयम् अस्ति। अर्थवदधातुरुत्पत्तेः प्रातिपदिकम् इति एकं सूत्रम्, येन अभ्युत्पन्नानां विच्छेदविच्छेदादीनां धातुभिन्नानां प्रत्ययभिन्नानां प्रत्ययान्तभिन्नानां अर्थवतां शब्दस्वरूपाणां प्रातिपदिकसंज्ञा विधीयते। तथैव कृत्तद्धितसमासाश्च इति सूत्रेण कृदन्तानां तद्धितान्तानां समासानां च प्रातिपदिकम् इति संज्ञा विधीयते। धातुः प्रातिपदिकम्। ततः विभक्तिः नाम का इति प्रश्ने विभक्तिश्च इति सूत्रेण सुप्तिङौ विभक्तिसंज्ञौ स्तः। सुप् प्रत्ययाः प्रातिपदिकेभ्यो विहिताः। सु औजस् इत्यनयः एकविंशतिः प्रत्ययाः, तेषां विभक्तिः इति संज्ञा। एवं तिङ् इति चित्तज्जि इत्यादीनां विहिताः अष्टादशप्रत्ययाः धातुभ्यः विहिताः, तेषामपि विभक्तिः इति संज्ञा अस्ति वस्तुतः। किन्तु रूढौ कथमस्ति इति चेत् सुवादीनां प्रत्ययानाम् एव विभक्तिः इति, तथैव तत्र त्रिकाणां त्रिकाणां सेट्स् आफ् त्रि, प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी इति विभक्तित्वेन व्यवहारः दृश्यते सुविभक्तीनामेव। तिङ्विभक्तीनां तु प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष इति रीत्या पुरुषत्वेन व्यवहारः दृश्यते व्याकरणशास्त्रे। यद्यपि पाणिनिना पृथक्तया तादृशी संज्ञा न दत्ता, तथापि पाणिनिनापि तथैव व्यवह्रियते। अन्यैः पाणिनीयैः अस्माभिरपि तथैव व्यवहारः। ततः वचनविषये एकवचनं द्विवचनं बहुवचनम् इत्यस्ति। द्वितयोर्द्विवचने एकवचने बहुषु बहुवचनम्, एकत्वे द्योत्ये एकवचनं भवति, द्वित्वे द्योत्ये द्विवचनं भवति, एवं बहुत्वे द्योत्ये बहुवचनं भवति इति ज्ञातम्। इदानीम् अन्या काचन संज्ञा, केचन कश्चन प्रश्नः अस्ति कश्चन पाठविषये, एनि क्वश्चन्स्, एनि डौट्स्? अग्रे सरामः। प्राग्रीश्वरान् निपाताः इति अग्रिमं सूत्रम्। इदम् अधिकारसूत्रम्। बहुषु अग्रिमेषु सूत्रेषु यस्य सूत्रस्य योजनं भवति अनुवृत्तिरिव भवति स एव अधिकारः। अधिकारस्य स्वतन्त्रतया अर्थः न भवति। अग्रिमसूत्रेषु योजनेन अर्थः लभ्यते। अधिकारसूत्रम् इति उक्तं कियत्पर्यन्तम् अधिकारः, हौ फार्, वाट् इस् द रेञ्ज् आफ् द अधिकार, इस् अ क्वेश्चन् विच् अरैसेस् वित् आल् अधिकारसूत्रम्। बहुत्र पाणिनिना अधिकारसूत्रं कियत्पर्यन्तं गच्छति इति नोच्यते। हि डस् नाट् रियलि मेन्शन् टिल् वेर्, फार् एक्साम्पल् दिस् इस् प्रत्ययः इति उच्यते, कियत्पर्यन्तं प्रत्ययाधिकारः, पञ्चमाध्यायसमाप्तिपर्यन्तम् इति व्याख्यानेन ज्ञातव्यं भवति, स्वयं पाणिनिना नोच्यते। किन्तु क्वचित् पाणिनिनैव अधिकारस्य सीमा उल्लिख्यते। अत्र यथा अस्ति प्राग् ईश्वरात् निपाताः, एवमेव प्राक् कडारात् समासः इति उच्यते। अर्थात् प्राक् नाम ततः प्राक्, ततः पूर्वम् इत्यर्थः। रीश्वर, अधिरीश्वरे इति सूत्रमस्ति, तत्र रीश्वर इति दृश्यते, ततः प्राक्, सो टिल् दट् सूत्र, टेकिङ्ग् इन् टु कन्सिडरेशन् दट् अधिरीश्वरे, प्राक् रीश्वरात् निपाताः, निपाताः इत्यधिकारः भवति इति अस्य कोऽर्थः। इतः आरभ्य इदं सूत्रमस्ति प्रथमाध्यायस्य चतुर्थपादे षट्पञ्चाशत्तमं सूत्रम्। इतः आरभ्य अधिरीश्वरे तस्यैव पादस्य सप्तनवतितमसूत्रपर्यन्तम् उच्यमानाः शब्दविशेषाः निपातसंज्ञाः स्युः। सर्वत्र निपाताः, निपाताः इत्युच्यते। अग्रिमैः सूत्रैः ये ये शब्दाः उच्यन्ते तेषां सर्वेषां निपाताः इति संज्ञा भवति। अयं संज्ञाधिकारः, दिस् इस् बोत् अ संज्ञा एण्ड् एन् अधिकार, इट् इस् गिविङ्ग् संज्ञा निपात, बट् सिन्स् निपात इस् नाट् confined to just one article, there are many sutras which define nipata adhikara, so he simply makes it an adhikara and says, so from the next sutra, whatever comes next, till adhirishvare, all that is mentioned will get the, will be called nipata. Iti nipata samnya. Tatra adhimam sutram asti, chadayo sattve. प्रागेश्वरा निपाताः इति षट्पञ्चाशत्तमं सूत्रम्, इदं सप्तपञ्चाशत्तमं सूत्रम्। चादयः असत्त्वे इति छेदः, द्वे पदे विद्यते। प्रागेश्वरा निपाताः इत्यतः निपाताः इत्यधिक, चादयः असत्त्वे निपातसंज्ञाः स्युः इत्यर्थः। भट्टोजिदीक्षितैः सूत्रार्थः कथं वर्णितः, अद्रव्यार्थाः चादयः निपातसंज्ञाः स्युः इति सूत्रार्थः। असत्त्वे इत्यस्य अद्रव्यार्थाः इत्यर्थः लिखितः, चादयः निपातसंज्ञाः स्युः। निपात इति संज्ञा, यथा मया उक्तं संज्ञायां ज्ञातायां तस्य संज्ञायाः, तस्याः संज्ञायाः उदाहरणमपि ज्ञातव्यं, वेर् इस् द संज्ञा एक्चुलि यूस्ड्, वृद्धिरादे इति संज्ञायां कृतायां वृद्धिरेचि इत्यत्र उपयुज्यते, मृजे वृद्धिः इत्यत्र उपयुज्यते, शिशुवृद्धिः परस्मैपदेषु इत्यत्र उपयुज्यते, संज्ञायाः उपयोगः भवति। एवं निपातसंज्ञायाः उपयोगः अस्ति, स्वरादिनिपातम् अव्ययम्, निपातम् अव्ययं भवति, सर्वे निपाताः अव्ययानि भवन्ति इति सूत्रम्। निपात एका जनान् इत्यस्ति, तत्रापि निपातसंज्ञायाः उपयोगः अस्ति, प्रगृहसंज्ञाविधायकं सूत्रम्। इदानीं सूत्रस्य कोऽर्थः, अद्रव्यार्थाः चादयः निपातसंज्ञाः स्युः इत्यस्ति। चादयः, चादिः नाम गणः, यथा भादयः इत्यनेन भू इत्यारभ्य कश्चन शब्दानां गणः स्वीक्रियते, एवं चादिः इति गणः, गणपाठे द्रष्टव्यः। के चादयः, सो चादि मीन्स् जस्ट् अ क्लास् आफ् वर्ड्स् विच् इस् स्टार्टिङ्ग् वित् च, okay, that is all you will know by the nomenclature. The nomenclature of any gana will be the first word of the gana. So chadi means a class, a gana is starting, it starts with cha. So you know one word which belongs to the gana, which is cha. Kintu anye ke shabdaha santi asmin gane iti jnatum chadi gana ganapathaha drashtavyaha. ಗಣಪಾಠೆ ಪಶ್ಯಂತಿ ಚೇತ್ ಅಯಂ ಚಾದಿಗಣ ದೃಶ್ಯತೆ ಚ ವಹ ಅಹ ಇತ್ಯಾದಿ ರೀತ್ಯ ಬಹೂನಿ ಪದಾನಿ ಸಂತಿ. ಸೊ ಇಫ್ ಯು ನೋಟಿಸ್ ದಟ್ ಮೆನಿ ಆಫ್ ದೆಮ್ ಆರ್ ಯು ವಿಲ್ ನೋ ದಮ್ ಅಸ್ ಅವ್ಯಯಸ್ ವಿಚ್ ವಿ ಯೂಸ್ ಚ ಯು ನೋ ವಾ ಏವ ಏವಂ ನೂನಂ ಭೂಯ ಇತ್ಯಾದಿ ಬಹೂನಿ ಅವ್ಯಯಾನಿ ಸಂತಿ. ಓಕೆ ಯಾವತ್ ತಾವತ್ ಮೆನಿ ಇಫ್ ಯು ಗೋ ಥ್ರೂ ದಿಸ್ ಲೀಷನ್ ಯು ಫೈಂಡ್ ದೇರ್ ಆರ್ ಮೆನಿ ವರ್ಡ್ಸ್ Avyayas which are used in daily usage which belong to Chadigana. They are avyayas because they belong to Chadigana. Chadigane santi ityataha tesham nipataha iti samya vidyate nipatanam avyayatvam api nihitam. So chadayo sattva ityanena kim ucchyate ete sarve api shabdaha nipata samyaha sihu iti ucchyate. ಕಿಂತು ಅನ್ಯದಪಿ ಪದಮಸ್ತಿ ತತ್ರ ಚಾದಯ ಅಸತ್ವೇ ಇತ್ಯಸ್ತಿ. ಅಸತ್ವೇ ಇತ್ಯಸ್ಯ ಕೋರ್ಥಃ ಇತಿ ದ್ರಷ್ಟವ್ಯಂ. ಸೂತ್ರಾರ್ಥೇ ದೀಕ್ಷಿತೈಹಿ ಲಿಖಿತಂ ಅದ್ರವ್ಯಾರ್ಥಃ ಇತಿ. ದ್ರವ್ಯಂ ನಾಮ ಕಿಂ, ವಾಟ್ ಇಸ್ ಅ ದ್ರವ್ಯ ಇತಿ ಪ್ರಶ್ನೆ. ಲಿಂಗ ಸಂಖ್ಯಾನ್ವಿತಂ ದ್ರವ್ಯಂ, ಯಸ್ಯ ಲಿಂಗಂ ಭವತಿ ಸಂಖ್ಯಾ ಭವತಿ ತದ್ ದ್ರವ್ಯಂ. ದ್ರವ್ಯಂ ಇಸ್ ಬೇಸಿಕಲಿ ಎನಿ ಮ್ಯಾಟರ್, ಎನಿ ಫಿಸಿಕಲ್ ಮ್ಯಾಟರ್ ದಟ್ ಹ್ಯಾಸ್ ಸಂಖ್ಯಾ ಅ ನಂಬರ್. ಇಟ್ ಆಲ್ಸೋ ದ ವರ್ಡ್ ವಿಚ್ ಡಿನೋಟ್ಸ್ ಇಟ್ ವಿಲ್ ಆಲ್ಸೋ ಹ್ಯಾವ್ ಅ ಲಿಂಗ. ಲಿಂಗ ಸಂಖ್ಯಾನ್ವಿತಂ ದ್ರವ್ಯಂ. ಅಸತ್ವ ದ್ರವ್ಯ ಅಂಡ್ ಸತ್ವ ಆರ್ ಸಿನಾನಿಮ್ ಟು ಈಚ್ ಅದರ್. ದ್ರವ್ಯಂ ನಾಮ ಸತ್ವಂ, ಅಸತ್ವೇ ನಾಮ ಅದ್ರವ್ಯಾರ್ಥಃ ಇತ್ಯರ್ಥಃ. ಯದಾ ಏತೇ ಶಬ್ದಾಃ ಚಾದಿಗಣೇ ಪಠಿತಾಃ ಶಬ್ದಾಃ ಅದ್ರವ್ಯಾರ್ಥಃ ಭವಂತಿ ತದಾ ತೇಷಾಂ ನಿಪಾತ ಸಮಯಾ ಭವತಿ. ಕೋರ್ಥಃ ಚ ಇತ್ಯಸ್ತಿ, ಚ ಇತ್ಯಸ್ತಿ ಕೋರ್ಥಃ ಅಂಡ್ ಇತ್ಯರ್ಥ. ತತ್ತು ದ್ರವ್ಯಂ ನಾಸ್ತಿ, ಅಂಡ್ ದ ಕಂಜಂಕ್ಷನ್ ಇಸ್ ನಾಟ್ ಎ ದ್ರವ್ಯ, ಇಟ್ ಹಸ್ ನೀದರ್ ಸಂಖ್ಯಾ ನಾರ್ ಲಿಂಗ. ಅತಃ ಅದ್ರವ್ಯಾರ್ಥಃ ಚ ಇತ್ಯಸ್ಯ ನಿಪಾತ ಸಮಯ ಅಸ್ತಿ. ಸಿಮಿಲರ್ಲಿ ವಾ ಇತ್ಯಸ್ತಿ, ವಾ ಇತ್ಯಸ್ಯ ಕೋರ್ಥಃ ಆರ್ ಇತ್ಯರ್ಥ. ಏವಂ ಯದಿ ಸಹ ಚಾದಿಗಣಃ ದೃಶ್ಯತೆ. There are most of the words you see there are like that. They are all by nature adravyarthaha. Eva ityasti, eva ityate dravyam nasti. Atha, kila, khalu, sarve ityate adravyarthaha eva. So they are all by nature adravyarthaha. So why does he specifically say adravyarthaha? There are certain words, if you can see, there are highlighted two words, shukam and pashu. Okay. ಶುಕಂ ಇತ್ಯಸ್ತಿ, ಶುಕಂ ಗಚ್ಚತಿ ಇತಿ ಪ್ರಯೋಗಃ ಅಸ್ತಿ. ಶೀಘ್ರಂ ಗಚ್ಚತಿ ಇತ್ಯರ್ಥಃ, ಶೀಘ್ರಂ ಇತ್ಯರ್ಥೆ ಶುಕಂ ಇತಿ ಪ್ರಯೋಗಃ ಅಸ್ತಿ. ತದಾ ತದಾ ಕಿಂ ಭವತಿ, ಶುಕಂ ಇತ್ಯಸ್ಯ ಶೀಘ್ರಂ ಗಚ್ಚತಿ ಇತ್ಯರ್ಥೆ ಶೀಘ್ರಂ ಇತ್ಯಸ್ಯ ದ್ರವ್ಯಾರ್ಥಕತ್ವ ನಾಸ್ತಿ. ಕಿಲ ಶೀಘ್ರಂ ಕ್ವಿಕ್ಲಿ ಇಸ್ ನಾಟ್ ಅ ದ್ರವ್ಯ, ಇಟ್ ಇಸ್ ಐ ಮೀನ್ ಇಟ್ ಇಸ್ ವೆರಿ ಓಬ್ವಿಯಸ್ ದಟ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಅ ಮ್ಯಾಟರ್, ಇಟ್ ಇಸ್ ಎ ಗುಣ. ಸೊ ವೆನ್ ಇಟ್ ಇಸ್ ಎ ಗುಣವಾಚಕ ತದಾ ನಿಪಾತ ಸಮಯಾ ಭವತಿ ಅದ್ರವ್ಯಾರ್ಥಃ ಇತ್ಯುಕ್ತಃ. ಕಿಂತು ತದೇವ ಶುಕಂ ಇತ್ಯಸ್ಯ ಪ್ರಸಿದ್ಧಃ ಅರ್ಥಃ ಕಃ, ಶುಕಃ ಪಕ್ಷಿ ಪ್ಯಾರೆಟ್ ಇತ್ಯರ್ಥೆ ಶುಕ ಶಬ್ದಃ ಅಸ್ತಿ. ಅತಃ ತದಾ ತಸ್ಮಿನ್ ಅರ್ಥೇ ಶುಕಂ ಪಶ್ಯ ಇತ್ಯಸ್ಯ ಪಕ್ಷಿ ವಿಶೇಷಂ ಪಶ್ಯ ಇತ್ಯರ್ಥೇ ಯದಾ ಪ್ರಯೋಗಃ ತದಾ ನಿಪಾತ ಸಂಜ್ಞಾ ನ ಭವತಿ. ಕಿಮರ್ಥಂ ನ ಭವತಿ? ಅತ್ರ ದ್ರವ್ಯವಾಚಕತ್ವಂ. ತಯ ತದೇವ ಕೃಷ್ಣಂ ದ್ರವ್ಯಾರ್ಥಸ್ಯ ಕಿಮ್ ಉದಾಹರಣಂ ಇತಿ ಚೇತ್ ಇದಮೇವ ಶುಕಃ ಇತ್ಯಸ್ಯ ಪಕ್ಷಿ ಇತ್ಯರ್ಥೇ ಕಿಂ ದ್ರವ್ಯವಾಚಕತ್ವಂ ಅಸ್ತಿ. ಶೀಘ್ರಂ ಇತ್ಯರ್ಥೇ ದ್ರವ್ಯವಾಚಕತ್ವಂ ನಾಸ್ತಿ. ಯದಾ ದ್ರವ್ಯವಾಚಕತ್ವಂ ನಾಸ್ತಿ ತದಾ ನಿಪಾತ ಸಂಜ್ಞಾ ಭವತಿ ಅವ್ಯಯಂ ಭವತಿ. ಯದಾ ದ್ರವ್ಯವಾಚಕತ್ವಂ ಅಸ್ತಿ ತದಾ ನಿಪಾತ ಸಂಜ್ಞಾ ನಾಸ್ತಿ. ಶುಕಃ ಶುಕೌ ಶುಕಾಃ ಶುಕಂ ಶುಕೌ ಶುಕಾನ್ ಇತ್ಯಾದಿ ರೀತಿಯ ಶಬ್ದಸ್ವರೂಪಾಃ ಶಬ್ದರೂಪಾಣಿ ಭವಂತಿ. ತತಃ ಏವಮೇವ ಪಶು ಇತಿ ಪದಮಸ್ತಿ, ಪಶು ಇತಿ ಪದಮಸ್ತಿ. पशुं नयन्ति, पशुः नाम कश्चन प्राणी इत्यर्थः, पशुः इट् इस् जनरली यूस् टु इण्डिकेट् केटल्, कौ, बफलो एट्सेट्रा, दे आर् आल् इण्डिकेटेड् बै पशु. पशुं नयन्ति इत्यर्थे निपातसंज्ञा न भवति, यतोहि पशुशब्दः द्रव्यवाचकः, इट् इण्डिकेट् अ पर्टिक्युलर् माटर्, अ पर्टिक्युलर् एनिमल् विच् हस् बोत् लिङ्ग एण्ड् संख्या, द्रव्यवाचकत्वे निपातसंज्ञा नास्ति. तदेव पुष्टं पशु मन्यते, पशु इत्यस्य सम्यक् इत्यर्थः अस्ति. सम्यगर्थे तस्य द्रव्यवाचकत्वं नास्ति, तदा निपातसंज्ञा भवति. So there are certain words in the Chadigana which can be used in both Dravyavachakatva and Adravyavachakatva. Tesham Vishaye Dravyavachakatve Nipata Samya Na Bhavati, Adravyavachakatve Nipata Samya Bhavati. Ityarthaha. So Chadayo Sattve इति निपातसंज्ञाविधायकं प्रथमं सूत्रम्. ततः अग्रिमं सूत्रमस्ति प्रादयः इति. सो इफ् यू नोटिस् द नंबर्स, दे आर् ऑल इन अ सीरीज. प्राग्वीश्वरान् निपाताः प्रादयो सत्वे प्रादयः 56, 57, 58. एकपदात्मकं सूत्रं प्रादयः इत्येव अस्ति. असत्त्वे इत्यनुवर्तते चादयो सत्त्वे इत्यतः निपाताः इत्यधिकारः अस्ति. सो यु हाव् द सेम् निपातसंज्ञा अस्ति. अद्रव्यार्थाः प्रादयः तथा इति वीक्षितैः उक्तं. तथा नाम निपातसंज्ञाः स्युः. सो जस्ट् लैक् चादि, प्रादि इस् अनदर् गण, अस्य गणस्यापि शब्दानां निपात इति संज्ञा भवति. So, all words which belong to the Pradigana are also called Nipatas. In addition, Upasargaha Kriyayoge, Eteshameva Pradinam, Pradayaha Ityanuvartate, Kriyayoge Upasargaha Iti Samnya Bhavati. So, these Pradis are generally called Nipatas. Kriyayoge, Yada Kriyayakaha एतेषां सम्बन्धः भवति, तदा एतेषामेव प्रादीनाम् उपसर्गाः इत्यपि संज्ञा भवति. एण्ड् आल्सो गतिश्च प्रादीनां क्रियायोगे, प्रादयः क्रियायोगे उपसर्गसंज्ञाः गतिसंज्ञाश्च स्युः. सो दीस् प्रादीस् वेन् दे आर् असोसियेटेड् वित् अ क्रिया विल् हाव् बोत् उपसर्ग एण्ड् गति. They are called, they have three different samyas. Okay? One is nipata, they are generally called nipatas always. Tataha kriyayoge upasargaha iti samya bhavati, eva meva jatihi iti samya bhavati. They are called, they belong to two, three different classes of words. They belong to the nipata, they belong to upasarga and also jati. And there is a purpose for giving different samyas. किमर्थं भिन्नाः संज्ञाः दीयन्ते इत्यत्रापि प्रयोजनम् अस्ति. निपातसंज्ञायाः प्रयोजनं दृष्टं. निपातत्वे सति स्वरादिनिपातम् अव्ययम् इत्यनेन अव्ययत्वं भवति. एवमेव अन्यानि कार्याणि सन्ति. उपसर्गाश्रितानि कार्याणि भिन्नानि भवन्ति. उपसर्गादसमासे पिणोपदेशस्य इत्यनेन नत्वं क्रियते. उपसर्गस्य यतौ इत्यादीनि बहूनि कार्याणि सन्ति विच् आर् कन्फैन्ड् टु दोस् पार्टिकल्स् विच् हाव् द उपसर्गसंज्ञा. गतिसंज्ञाश्रितानि कार्याणि अपि भिन्नानि सन्ति. गतिकारकोपपदार्थत् गतिरनन्तरः इत्यादिभिः सूत्रैः. सो देर् आर् डिफरेण्ट् कार्या विच् डिपेण्ड् आन् डिफरेण्ट् सम्यक्. केन् इमेजिन् देम् सेट्स्, इफ् यु हव् डेल्ट् वित् सेट्स्, देर् इस् अन् इण्टर्सेक्षन्, देर् आर् त्री डिफरेण्ट् सर्कल्स्. ओके, वन् सर्कल् इस् यु केन् इमेजिन् देम् अस् निपाताः, वन् अस् उपसर्ग एण्ड् वन् अस् गति. Which are all there for different classes of words. The intersection of those would be these pradis. They have all three samyas and they get karyas which are intended for all the samyas. Sarvesham, sarvasam, etasam, samyanam, yani yani karyani vidhiyante, tani sarvani pradinam bhavanti. Tarihi pradayaha ke, which is bahu prasiddhaha, upasargaha ityaya prasiddhaha. We know them better as upasargas. They are all Here they are referred to as pradi. Pra, para, apa, sam, anu, ava, nis, nir, dus, dur, vi, ang, ni, adhi, api, ati, prati, pari, upa. Su, ut, abhi, prati, pari, upa. Ete, pradayaha. There are 22 of these, which are, can be added to dhatus. As you know, sarve ete, dhatubhyaha, purvam, yajjante. यदा धातुभ्यः प्राग् भवन्ति तदा एतेषाम् उपसर्गाः इति संज्ञा भवति प्रतिष्ठते पराजयते अपसरति सङ्गच्छते ऑल दीस कैन बी एडेड टू धातु सो व्हेन दे आर एडेड विद इन एसोसिएशन विद धातु दे आर कॉल्ड उपसर्गा एंड आल्सो गति इन सम केसेस तद्भिन्नत्वे सति निपाताः इत्यपि संज्ञा अस्ति एताः प्रमुखाः संज्ञाः कारकप्रकरणतः पूर्वं ज्ञेयाः इत्यतः मया उल्लिखिताः देयर माइट बी अदर संज्ञाः विच आर नीडेड सो वी विल डील विथ देम एज वी नीड यदा यदा संज्ञायाः तस्याश्चन आवश्यकता भवति तदा पश्यामः एनी डाउट्स